अथ चतुर्थोऽध्यायः। विष्णुर्ब्रह्म तथा दातेत्येवं नित्यमुपासनम्। कार्यमापद्यपि ब्रह्म तेन यात्यपरोक्षताम्। प्रारब्धकर्मणोऽन्यस्य ज्ञानादेव परीक्षयः। अनिष्टस्योभयस्यापि सर्वस्यान्यस्य भोगतः। उत्तरेषूत्तरेष्वेवं यावद्वायुं विमुक्तिगाः। प्रविश्य भुञ्जते भोगांस्तदन्तर्बहिरेव वा। वायुर्विष्णुं प्रविश्यैव भोगश्चैवोत्तरोत्तरम्। उत्क्रम्यमानुषा मुक्तिं यान्ति देहक्षयात्सुराः। अर्चिरादिपथा वायुं प्राप्यते न जनार्दनम्। यान्त्युत्तमा नरोच्चाद्या ब्रह्मलोकात् सहा मुना। यथा सङ्कल्पभोगाश्च चिदानन्दशरीरिणः। जगत्सृष्ट्यादिविषये महासामर्थ्यमप्रुते। यथेष्टशक्तिमन्तश्च विना स्वाभाविकोत्तमान्। अनन्यवशगाश्चैव वृद्धिह्रासविवर्जिताः। दुःखादिरहिता नित्यं मोदन्ते विरतं सुखम्। पूर्णप्रज्ञेन मुनिना सर्वशास्त्रार्थसङ्ग्रहः। कृतोऽयं प्रीयतां तेन परमात्मा रमापतिः। नमो नमो शेषदोषदूरपूर्णगुणात्मने। विरिञ्चि शर्वपूर्वेड्य वन्द्याय श्रीवरायते। इति श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचिते ब्रह्मसूत्राणुभाष्ये चतुर्थोऽध्यायः।